प्रागेव आचार्यपुत्राहृतिनिशमनया स्वीयषट्सूनुवीक्षां काङ्क्षन्त्याः मातुरुक्त्या सुतलभुवि बलिं प्राप्य तेनार्चितस्त्वं धातुशापात् हिरण्यान्वितकशिपुभवान् शौरिजान् कंसभग्नात् आनीयैनान् प्रदर्श्य स्वपदमनयथाः पूर्वपुत्रान् मरीचेः श्रुतदेव इति श्रुतं द्विजेन्द्रं बहुलाश्वं नृपतिञ्च भक्तिपूर्णं युगपत्त्वमनुग्रहीतु कामः मिथिलां प्रापिथ तापसैः समेतः गच्छन् द्विमूर्तिः उभयोः युगपन्निकेतं एकेन भूरिविभवैः विहितोपचारः अन्येन तद्दिनभृतैश्च फलौदनाद्यैः तुल्यं प्रसेदिथ ददाथ च मुक्तिमाभ्यां भूयोथद्वारवत्यां द्विजतनयमृतिं तत्प्रलापानपि त्वं को वा दैवं निरुन्ध्यात् इति किल कथयन् विश्ववोढापि असोढाः जिष्णोर्गर्भं विनेतुं त्वयि मनुजधिया कुण्ठितां चास्य बुद्धिं तत्त्वारूढां विधातुं परमतमपदप्रेक्षणे नेति मन्ये नष्टा अष्टास्य पुत्राः पुनरपि तवतु उपेक्षया कष्टवादः स्पष्टो जातो जनानाम् अथ तदवसरे द्वारकाम् आरपार्थः मैत्र्या तत्रोषितोऽसौ नवमसुतमृतौ विप्रवर्यप्ररोदं श्रुत्वा चक्रे प्रतिज्ञाम् अनुपहृतसुतः सन्निवेक्ष्ये कृशानुं मानी सत्त्वामपृष्ट्वा द्विजनिलयगतो बाणजालैर्महास्त्रैः रुन्धानसूतिगेहं पुनरपि सहसा दृष्टनष्टे कुमारे याम्यामैन्द्रीं तथान्याः सुरवरनगरीः विद्यया साध्य सद्यः मोघोद्योगः पतिष्यन्हुतभुजि भवता सस्मितं वारितोऽभूत् सार्धं तेन प्रतीचीं दिशम् अतिजविना स्यन्दनेन अभियातो लोकालोकं व्यतीतस्तिमिरभरमथो चक्रधाम्ना निरुन्धन् चक्रांशुक्लिष्टदृष्टिं स्थितम् अथ विजयं पश्य पश्येति वारां पारे त्वं प्राददर्शः किमपि हितमसां दूरदूरं पदं ते तत्रासीनं भुजङ्गाधिपशयनतले दिव्यभूषायुधाद्यैः आवीतं पीतचेलं प्रतिनवजलदश्यामलं श्रीमदङ्गं मूर्तीनाम् ईशितारं परमिह तिसृणाम् एकमर्थं श्रुतीनां त्वामेव त्वं परात्मन् प्रियसखसहितो नेमिथ क्षेमरूपं युवां मामेव द्वौ अधिकविवृतान्तर्हिततया विभिन्नौ सन्द्रष्टुं स्वयमहमहार्षं द्विजसुतान् नयेतं द्रागेतान् इति खलु वितीर्णान् पुनरमून् द्विजाय आदायादाः प्रणुतमहिमा पाण्डुजनुषा एवं नानाविहारैः जगदभिरमयन् वृष्णिवंशं प्रपुष्णन् नीजानुयज्ञभेदैः अतुलविहृतिभिः प्रीणयन् येण नेत्राः भूभारक्षेपदम्भात् पदकमलजुषां मोक्षणाय अवतीर्णः पूर्णं ब्रह्मैव साक्षात् यदुषु मनुजतारुषितः त्वं व्यलासीः प्रायेण द्वारवत्याम् अवृतत् अयि तदा नारदः त्वद्रसार्द्रः तस्मात् लेभे कदाचित् खलु सुकृतनिधिः त्वत्पिता तत्त्वबोधं भक्तानाम् अग्रयायी स च खलु मतिमान् उद्धवस्त्वत्त एव प्राप्तो विज्ञानसारं सखिल जनहिताय अधुनास्ते बदर्यां सोऽयं कृष्णावतारो जयति तव विभो यत्र सौहार्दभीति स्नेहद्वेषानुराग प्रभृतिभिः అతులై అశ్రమై యోగభేదై ఆర్తిం తీర్త్వా సమస్తాం అమృతపదమగుహు సర్వతస్సర్వలోకాః సత్వం విశ్వార్థిశాంత్యై పవనపురపతే భక్తిపూర్త్యై చ భూయాః సత్వం విశ్వార్థిశాంత్యై పవనపురపతే భక్తిపూర్త్యై చ భూయాః సత్వం విశ్వార్థిశాంత్యై పవనపురపతే భక్తిపూర్త్యై చ భూయాః ఓం తత్సతితి శ్రీమన్నారాయణీయే అష్టాశీతితమం దశకం సమాప్తం శ్రీహరయే నమః రమారమణ గోవిందా గోవిందా శ్రీకృష్ణార్పణమస్తు.